इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। अथ वार्ताः। भूटान देशीयेन राज्ञा जिग्मे खेसर नामक्येल वांगचुक इत्यनेन ह्यः थिम्पुनगरे प्रधानमन्त्रिणे नरेन्द्र मोदिने भूटानस्य सर्वोच्च नागरिक पुरस्कारः ऑर्डर ऑफ द ड्रुक ग्याल्पो इति सम्मान प्रदत्तः। अत्रावसरे श्रीमोदी अभिव्यक्तवान् यत् इदं तस्य जीवनस्य सुदीर्घदिनमस्ति। तेनोक्तं यत् प्रत्येकं पुरस्कारः विशिष्टो वर्तते, परञ्च यदा कस्मै अपि परदेशात् पुरस्कारः प्रदीयते तदा अभिज्ञायते यत् उभौ देशौ समुचितमार्गे प्रवर्धेते। असौ अग्रे प्रोक्तवान् यत् सम्मानमिदं तस्य निजोपलब्धिः नैव वर्तते, अपितु भारतदेशस्य अथ च तस्य चत्वारिंशदधिकैकशतकोटि भारतीय नागरिकाणां सम्मानमस्ति। पुरस्कारस्वीकरणानन्तरम् अनेन स्वीयाभारो अभिव्यक्तः। तदनु प्रधानमन्त्री ह्यः मध्याह्ने थिम्पुनगरे ताशी छोड जोंग भवने भूटानस्य राज्ञा सह वार्ताम् अपि साधितवान्। एतौ उभौ नेतारौ भारत भूटान देशयोः पारस्परिक मित्रतां पुनरावर्तितवन्तौ, द्विपाक्षिक सम्बन्धानां च समीक्षां विहितवन्तौ। ध्येयं वर्तते यत् प्रधानमन्त्री ह्यः प्रातः द्विदिवसीय भूटान यात्रायां थिम्पुनगरस्य पारो विमानपत्तन स्थानकं सम्प्राप्तवान् आसीत्, यत्र भूटान देशीयेन प्रधानमन्त्रिणा एतस्य पारम्परिक पद्धत्या सह स्वागतं विहितम्। अत्रावसरे प्रधानमन्त्री भूटानस्य राज्ञा जिग्मे खेसर नामग्याल वांगचुक इत्यनेन सह भूटानस्यैव च चतुर्थराज्ञा जिग्मे शिंग्ये इत्यनेन सहापि मेलनं कृतवान्। इसरो इति भारतीयान्तरिक्ष अनुसन्धान संघटनेन ह्यः कर्णाटकस्य चित्रदुर्ग परीक्षणस्थले स्वीयं पुष्पक इत्याख्यं रियूजेबल लॉन्च व्हीकल पुनः प्रयुज्यमानं प्रक्षेपयन्त्रं सफलतापूर्वकं प्रत्यावर्तितम्। भारतीयान्तरिक्ष अनुसन्धान संघटनस्य अध्यक्षेण एस सोमनाथेन सामाजिक संचार पटले एकस्मिन् सन्देशे उल्लिखितं यत् अन्तरिक्षयानस्य पूर्णतया स्वनियन्त्रित संजालनाय इसरो दलाय वर्धापनानि। इसरो इत्यनेन अन्तरिक्षयानस्य परीक्षणेन पुनरेकदा स्वदैशिक प्रौद्योगिकी संस्थापिता। अत्रावसरे सूचना प्रसारण मन्त्री अनुराग सिंह ठाकुरः अवोचत् यत् अनेन परीक्षणेन सह भारतेन अन्तरिक्षक्षेत्रे नूतन कीर्तिमान स्थापनस्य प्रतिबद्धता प्रकटिता। संयुक्तराष्ट्रसंघ महासभाया कृत्रिम बुद्धिमत्ता आधारितं प्रथमं एआई संकल्पस्य अनुमोदनं कृतम्। संकल्पमिदं अन्ताराष्ट्रिय प्रयासान् वैश्विक समर्थनं प्रददाति, येन नूतन प्रौद्योगिकी सर्वेषां राष्ट्राणां लाभं मानवाधिकारस्य सम्मानं सुरक्षितं संरक्षितं च भवेत् इति सुनिश्चितं करोति। भारत ऋतु विज्ञान विभागेन आईएमडी इत्यनेन पूर्वोत्तर भारते अस्य मासस्य षड्विंशति दिनांकं यावत् अतिवृष्टेः विद्युद्योतनस्य च संभावना प्रकटिता। आगामिषु चतुर्षु दिवसेषु अरुणाचलप्रदेशे, असमराज्ये, मेघालये, नागालैण्डराज्ये, मणिपुरे, मिजोरमराज्ये, त्रिपुरायां, सिक्किमे, उपहिमालयीय पश्चिमबंगे च अतिवृष्टिः भविष्यति। क्रिकेटस्पर्धामालिकायाः अस्य वर्षस्य आईपीएल इति संस्करणस्य आरम्भः ह्यः अभवत्। प्रथमस्पर्धायां ह्यः चेन्नईनगरस्य एमए चिदम्बरम् इति क्रीडांगणे चेन्नई सुपर्स किंग्स दलेन रॉयल चैलेंजर्स बेंगलुरु दलं षड्स्तोभैः पराजितम् इति वार्ताः।